ॐ श्री परमात्मने नमः। अथ विभूतियोगो नाम दशमोऽध्यायः। श्रीभगवान् उवाच, भूय एव महाबाहो, शृणु मे परमौ वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया। न मे विदुःसुरगणा प्रभवन्न महर्षयः। अहमादिर्हि देवानां महर्षीणाञ्च सर्वशः। यो मामजमनादिञ्च वेत्ति लोकमहेश्वरम्। असम्मूढः समर्त्येषु सर्वपापैः प्रमुच्यते। बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यन्दमश्यमः। सुखं दुःखं भवो भावो भयञ्चाभयमेव च। अहिंसा समता तुष्टिः तपोदानैयशो यशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः। महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषाल्लोक इमा प्रजाः। एतां विभूतिं योगञ्च मम यो वेत्ति तत्त्वतः। सो विकम्पेन योगेन युज्यते नात्र संशयः। अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधाभावसमन्विताः। मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परं। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च। तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं। ददामि बुद्धियोगन्तं येन मामुपयान्ति ते। तेषामेवानुकम्पार्थम् अहमज्ञानजन्तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता। अर्जुन उवाच, परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यं आदिदेवमजं विभुम्। आहुस्त्वा मृषयः सर्वे देवर्षिर्नारदस्तथा। असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे। सर्वमेतद्रुतं मन्ये यन्मां वदसि केशव। न हि ते भगवन् व्यक्तिं विदुर्देवान दानवाः। स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तम। भूतभावन भूतेश देवदेव जगत्पते। वक्तुमर्हस्य शेषेण दिव्याह्यात्मविभूतयः। याभिर्विभूतिभिर्लोकान् इमान् त्वं व्याप्य तिष्ठसि। कथं विद्यामहं योगिन् त्वां सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया। विस्तरेणात्मनो योगं विभूतिञ्च जनार्दन। भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतम्। श्रीभगवान् उवाच, हन्तते कथयिष्यामि दिव्याह्यात्मविभूतयः। प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे। अहमात्मा गुडाकेश सर्वभूताशयस्थितः। अहमादिश्च मध्यञ्च भूतानाम् अन्त एव च। आदित्यानामहं विष्णुः ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि नक्षत्राणाम् अहं शशी। वेदानां सामवेदोऽस्मि देवानामस्मि वासवः, इन्द्रियाणां मनश्चास्मि, भूतानामस्मि चेतना, रुद्राणां शङ्करश्चास्मि, वित्तेशो यक्षरक्षसां, वसूनां पावकश्चास्मि, मेरुशिखरिणामहम्। पुरोधसाञ्च मुख्यं मां विद्धि पार्थ बृहस्पतिं, सेनानीनामहं स्कन्दः, सरसामस्मि सागरः, महर्षीणां भृगुरहं गिरामस्म्येकमक्षरं, यज्ञानाञ्जपयज्ञोऽस्मि स्थावराणां हिमालयः, अश्वत्थः सर्ववृक्षाणां देवर्षीणाञ्च नारदः, गन्धर्वाणाञ्चित्ररथः सिद्धानां कपिलो मुनिः, उच्चैश्रवसम् अश्वानां विद्धि मामममृतोद्भवम्, ऐरावतङ्गजेन्द्राणां नराणाञ्च नराधिपम्, आयुधानामहं वज्रं धेनूनामस्मि कामधु, प्रजनश्चास्मि कन्दर्पः, सर्पाणामस्मि वासुकिः, अनन्तश्चास्मि नागानां वरुणो यादसामहं, पितॄणामर्यमा चास्मि यमः संयमतामहम्, प्रह्लादश्चास्मि दैत्यानां कालकलयतामहं, मृगाणाञ्च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणां, पवनपवतामस्मि रामशस्त्रभृतामहं, झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी, सर्गाणामादिरन्तश्च मध्यञ्चैवाहमर्जुन, अध्यात्मविद्याविद्यानां वादप्रवदतामहम्, अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च, अहमेवाक्षयः कालो धाताहं विश्वतोमुखः, मृत्युः सर्वहरश्चाहम् उद्भवश्च भविष्यताम्, कीर्तिश्रीर्वाक्च नारीणां स्मृतिर्मेधाधृतिक्षमा, बृहत्साम तथा साम्नां गायत्री छन्दसामहं, मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः, द्यूतञ्चलयतामस्मि तेजस्तेजस्विनामहं, जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्, वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः, मुनीनामप्यहं व्यासः कवीनामुशनाकविः, दण्डोदमयतामस्मि नीतिरस्मि जिगीषतां, मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्, यच्चापि सर्वभूतानां बीजं तदहमर्जुन, न तदस्ति विना यत्स्यान् मया भूतं चराचरम्, नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप, एष तु देशतः प्रोक्तो विभूतेर्विस्तरो मया, यद्यद्विभूतिमत्सत्त्वं श्रीमत् ऊर्जितमेव वा, तत्तदेवावगच्छत्वं मम तेजोंशसम्भवम्, अथवा बहुनैतेन किं ज्ञातेन तवार्जुन, विष्टभ्याहमिदं कृत्स्नम् एकांशेन स्थितो जगत्। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः। हरि ओं तत्सत्। हरि ओम तत्सत् हरि ओम तत्सत्।